Shri Aditya Hridayam. This is from Valmiki Ramayana's Yuddha Kanda. Sage Agastya appeared to Sri Rama in the battlefield and taught this Aditya Hridayam. After chanting this for 3 times, Sri Rama slain the mighty Ravana. To keep good health and to keep away enemies, Aditya Hridayam is prescribed by the learned. Asya Sri Aditya Hridaya Stotra Mahamantrasya Agastyo Bhagavan Rushihi Anushtup Chandaha Aditya Mandalantaru Varti Paramatma Devata Mama Sakala Vigna Nivarana Purvaka Sarvabhishta Siddharti Jepe Viniyogaha.
Tato Yuddha Parishrantam Samare Chintaya Sthitam Ravanam Chagrato Drishtva Yuddhaya Samupasthitam Daivataischa Samagamya Drashtum Abhyagato Ranam Upagamya Bravid Ramam Agastyo Bhagavan Rushihi.
Agastya Uvacha.
Rama Rama Mahabaho Shrunu Guhyam Sanatanam Yena Sarva Narinvatsa Samare Vijayishyasi.
Aditya Hridayam Punyam Sarva Shatru Vinashanam Jayavaham Japen Nityam Akshayam Paramam Shubham.
Sarva Mangala Mangalyam Sarva Papa Pranashanam Chinta Shoka Prashamanam Ayurvardhanam Uttamam.
Rashmimam Tam Samudyam Tam Devasura Namaskritam Pujayasva Vivasvam Tam Bhaskaram Bhuvaneshwaram.
Sarva Devatmako Hesha Tejasvi Rasmi Bhavanah Yesha Deva Suraganan Lokan Pati Gabhasti Bihi.
Yesha Pramhacha Vishnuscha Shivaskanda Prajapatihi Mahendro Dhanadah Kalo Yamasso Mohya Pampatihi.
Pitaro Vasavasadhya Hashvinau Maruto Manuhu Vayurvanhi Prajah Pranah Rutukarta Prabhakarah.
Aditya Savita Suryah Khagah Pusha Gabhastiman Suvarna Sadrisho Bhanuhu Svarna Reta Divakarah.
Haridashva Sahasrarchihi Sapta Saptir Marichiman Timiron Madhana Shambuhu Vashta Martanda Amshuman.
Hiranyagarbhastri Shirastapano Bhaskaro Ravihi Agnigarbhodite Putraha Shankhashishiranashanaha.
Vyomanadhastamo Bhedi Rugyajussamaparagaha Ghanavrushti Rapamitro Vindya Vidhi Plavangamaha.
Atapi mandali mrutyuhu pingala sarvatapanah kavir vishwo mahateja raktas sarva bhavodbhavah.
Nakshatra graha tarana madhipo vishwa bhavanah tejasamapi tejasvi dvadashatman namostute.
Namah Purvaya Giraye Paschimayadraye Namaha Jyotir Gananam Pataye Dinadhipataye Namaha Jayaya Jaya Bhadraya Hariyashvaya Namo Namaha Namo Namah Sahasramsho Adityaya Namo Namaha Namah Ugraya Viraya Sarangaya Namo Namaha नमः पद्मप्रबोधाय मार्तांडाय नमो नमः ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे भास्वते सर्वभक्षाय रौद्राय वपुषे नमः तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः तप्तचामीकराभाय वह्नये विश्वकर्मणे नमस्तमोभिनिघ्नाय ऋचये लोकसाक्षिणे नाशयत्येष वैभूतं तथैव सृजति प्रभुः पायत्येष तपत्येष वर्षत्येष गभस्तिभिः
येष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः येष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणां
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः
येन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिं एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि एवमुक्त्वा तदागस्त्यो जगाम च यथा गतम्
एतच्छ्रुत्वा महातेजा नष्टशोको भवत्तदा धारयामास सुप्रीतो राघवः प्रयतात्मवान्
आदित्यं प्रेक्ष जप्त्वा तु परं हर्षमवाप्नुवान् त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् सर्वयत्नेन महता वधे तस्य धृतोऽभवत्
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः निशिचरपति संक्षयं विदित्वा सुरगणमज्जगतो वचस्त्वरेति इति आदित्यहृदयं सम्पूर्णम्।